poetess. It's on page number 6. Page number 6, question 14. I don't know whether it's a pulinga or strilinga. I tried to find out what that is, but I couldn't understand. Gopalaha.
Kavayitrayaha.
What does that mean?
Kavayitri.
Kavayitri.
Kavayitri. Bahuvachanam kavayatriyaha. Kavi, kavi iti asti kalo. Shrilinga shabda.
So it is a female, it's a feminine poetess. Yeah,
Okay. So it should be Dvitiya Vibhakti, Bahuvachana is Kavayatrihi.
Samanam kalo. Kavayatrihi.
Kavayatrihi. And Gruhini as well. Gruhini. And some places on the net it says Grahani. Is it Gruhini or Grahani?
Gruhini, Gruhinyaha.
Okay, Gruhinyaha.
That Rukarantaha Shaptaha. Gah plus Ru.
Okay. Dhanyavad Bhagini. I understood.
Anya kopi, kimapi sandeha santiva? Before we go to the next one. Anyaha? Rama Bhagini, Lakshmi Bhagini?
परिशीलितं
चेकिंग
ओके धन्यवाद
अन्य कॉपी 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 इज एनीवन कॉपी इज कॉमन व्हेन पुल्लिंग स्त्रीलिंग बोथ आर देयर कॉपी पृच्छति वा कॉपी sandeham asti va iti only ladies in this group I can use kapi kapi kimapi prashtum icchati va agre gachhamah utam sarve griha karyani whatever possible you did right atra more than abhyasa pustakam vibhakti is full of practice. You can just say shapta rupaha the sapta eva, seven. I can just go simple ekavachanam, bahuvachanam. Matram I can go fast, but there are so many abhyasas. When you sit and write, you will have lot of doubts. How is this? How is this? And so it's more of a self-practice. Whatever I am teaching, but when that sound goes inside you, you will have lot of questions and maybe some doubts you might get. So atah pashyatu ekavaram itopi aham ekam chintitavati bhavantah samayam asti chet you can your group vanti someone who knows vibhakti samyak or like a discussion class. Maybe in this week, the same, if Tuesday I'm taking a class, Thursday, Friday, Saturday, whenever you all are comfortable, you can keep one class as a discussion class, just 1 hour class or 45 minutes class. You all can meet and discuss your doubts. So in that way, you don't need to wait till next Tuesday. And when you discuss, more of your doubts will also get clear. You can think about it. Some few people are in this group knows Vibhakti very well. So you can take help from them. So just think about it. Maybe you can keep a 45 minutes class one more day, not Tuesday. One more day you can keep it and just discuss amongst yourself. Chintayatu. Bhavantah option. Ichchanti chet kurvanti.
Bhagini?
Ah.
But you just mentioned one book for Vibhakti practice. Which is that book?
No. I said Shaptas. Shaptas is the Vibhakti, right? Basically.
You just mentioned one book, for practice.
I didn't mention, I said there are so many practices given in this book only.
Okay.
Said better you practice that.
Okay.
There are so many things in this book, no?
Mm-hmm.
Lot of things to write. When you sit and write, there is a lot to do, right? I said better you write all exercise, try to write. What I said is, if you want, you can just have a class.
Yeah, astu bhagini.
It's your wish. If you want, you can do that.
कन्वीनियन्स् यु डिसैड् द डे सो दट् वी आल् मीट् अण्ड् डिस्कस् पर्टिक्युलर् डे अदर् देन् ट्यूस्डे
ऐ डोण्ट् टेल् सजेस्ट् एनिथिङ्ग् ऐ एम् आस्किङ्ग् आल् अदर्स् इन् दिस् ग्रूप् दे आर् हियर् फर् मेबि भगिनि यु आर् जस्ट् न्यू यु आर् जायिन् नौ But they are here for 5 months, so they know each other well. They can just discuss and decide, because some people are working also. So it's purely their choice. If they tell you the time, you can also join there.
Okay.
I don't suggest any day or time.
Okay. Sorry, Vajmi.
No problem. इदानीं वयं द्वितीयाविभक्तिरूपं स्पष्टम् इति चिन्तयामि. अतः अहम् अन्यशब्दान् ऐ थिङ्क् यु आल् हेड् मेमरैस्ड् दिस् रामशब्दम् ऐ सेड् त्री रैट् रामशब्दं सर्वे जानन्ति. सीताशब्दं किमपि अन्यशब्दम् अहम् उक्तवती, सीता वा रमा वा. अनन्तरं गौरीशब्दम् उक्तवती. You all are comfortable with that? Gauri Shaptam?
Nadi
or Gauri? Idanim ekavaram abhyasam. Whoever had newly read, not previously known, but you have newly read. Someone can tell. You can see and tell. Not an issue. Who wants to go?
Gauri. Ramaha Ram.
No. Bagini, I told last week about Gauri Shaptam.
Shall I check?
Bagini, did you read last week or you know already?
No.
I want someone who read last week.
No, I didn't read, but I know already.
You know.
I didn't read last week. Yeah.
Fine.
ईकारान्तस्त्रीलिङ्ग गौरीशब्दः. गौरी गौर्यौ गौर्यः, गौरीं गौर्यौ गौरीः, गौर्या गौरीभ्यां गौरीभिः, गौर्यै गौरीभ्यां गौरीभ्यः, गौर्याः गौरीभ्यां गौरीभ्यः, गौर्याः गौर्योः गौरीणां, गौर्यां गौर्योः गौरीषु. हे गौरी, हे गौर्यौ, हे गौर्यः.
ओके. गौरी गौरौ गौरयः, गौरीं गौर्यौ गौरीः, गौर्या गौरीभ्यां गौरीभिः, गौर्यै गौरीभ्यां गौरीभ्यः, गौर्या गौरीभ्यां गौरीभ्यः, गौर्याः गौर्योः गौरीणां, गौर्यां गौर्योः गौरीषु. हे गौरी, हे गौर्यौ, हो हे गौर्यः.
सम्यक् अन्य कापि वदति
वा? अहं वदति. गौरी गौरी गौर्यौ गौर्यः, गौरीं गौर्यौ गौरी, गौर्यः गौर्या गौरा गौरीभ्यां गौरीभिः, गौर्यै गौरीभ्यां गौरीभ्यः, गौर्याः गौरीभ्यां गौरीभ्यः, गौर्याः गौर्योः गौरीणां, गौर्यां गौर्योः गौरीषु.
सम्यक्. अन्य कोऽपि वक्तुमिच्छति वा? Someone else who read last week? Anu Bhagini? Shobha Bhagini?
Sangeeta Bhagini, sorry. Somehow I have missed this Gauri Vibhakti list. I think I have missed it. I have Sita and Rama and Guru.
Okay.
But I have missed the Gauri one.
Bhagini, send it on WhatsApp.
WhatsApp, I sent it.
Oh, okay, okay. I will check that. Yeah, thank you.
No problem.
Bhagini.
Vaidu.
Aham Nadi Shabdah.
Vaidu. Kimapi Ikaranta Shabdah.
Ikaranta Strilinga Nadi Shabdah. नदी नद्यौ नद्यः नदीं नद्यौ नदीः नद्या नदीभ्यां नदीभिः नद्यै नदीभ्यां नदीभ्यः नद्याः नदीभ्यां नदीभ्यः नद्याः नद्योः नदीनां नद्यां नद्योः नदीषु हे नदी हे नद्यौ हे नद्यः.
अस्तु. सो फर् दिस् वीक् ओवर् एस् मेमरैस्ड् अकारान्तः आकारान्तः ईकारान्तः. यु केन् टेक् सम् अदर् सौण्ड्. फर् एक्साम्पल् नौ यु नो गौरी आर् नदी ईकारान्तशब्दः. टेक् अ वर्ड् देवी लक्ष्मी. In fact, my children, when they learned, now they are learning for 3-4 years now. Since childhood they are learning, they used to tell everything like karah, kar, motor yanam, kar, chet, karah, karau, karya. Like that they will try to translate everything in the shabda rupas. Their children, on some word they will take and keep on telling about that. They don't even know whether it is English word, I need to translate it to Sanskrit. They don't know, they will just match some sound. They'll say Ganeshah, then they'll say Ganeshah, Ganeshau, Ganeshah. Evam Balah Katam Kurvanti Samanam Eva. Take any sound, Droni, if you see a bucket, then immediately try to tell that Droni Ikaranta Strilingam. Varatu Pavantaha Putraha Putriyaha name. Namam Evam Agachati, if your daughter name is something like Meera or some other name. Then Stalika, you see the plate. Stalika, Staliki, Stalikah, Stalikam. स्थालिकाः एवं किमपि पश्यतु. कथं पूर्वं वयं क्रियापदाभ्यासं कृतवन्तः खलु. वाट् एवर् अहं पाकं पचामि, अहं जलं पिबामि, एवम् इदानीं शब्दं. किमपि वस्तु पश्यतु, तत् वस्तु किं विभक्ति किं लिङ्गम् इति पश्यतु, अनन्तरम् अकारान्त वा ईकारान्त वा इति पश्यतु, तत् शब्दं वक्तुं प्रयत्नं कुर्वन्तु. एवं करोति चेत् पुनः पुनः अभ्यासः भवति. यदा नूतनशब्दम् आगच्छति चेत् अपि सम् इफ् सम् सडन्ली सम्बडि इस् गिविङ्ग् सम् न्यू सौण्ड् देन् इट् इस् वेरि ईसि टु फर् यू टु टेल् देट् निर्मला इति नाम अस्ति वा, निर्मला निर्मले निर्मलाः इति. इट् इस् कम् सो फास्ट् स्टे आन् टाप् आफ़् युर् मैण्ड् द फस्ट् लेयर्. एवं वक्तुं प्रयत्नं कुर्वन्तु. अनन्तरम् अहम् अद्य विल् सी वन् मोर् न्यू शब्दः. नूतनशब्दः इत्युक्ते पूर्णं नूतनं नास्ति, वयं जानीमः. लास्ट् वीक् इट्सेल्फ् ऐ सेड् दीस् आर् आल् ईक्वल् सौण्ड् इति. हरिः शब्दः. पार्वती भगिनी अभ्यासं कारयति वा? हरिः शब्दं जानाति वा? पार्वती भगिनी अस्ति वा?
यद् भगिनी अहं भगिनी.
हरिः शब्दं जानाति वा?
इदानीम्
अहं वाट्सप् मध्ये प्रेषयामि, सर्वे पश्यन्तु. भगिनी एकवारम् अभ्यासं कारयतु. इदानीमेव प्रेषयामि.
हरि अहं वदामि.
वदतु भगिनि.
भगिनि हरि हरिः हरि हरयः हरिं हरि हरिन् हरिणा हरिभ्यां हरिभिः हरये हरिभ्यां हरिभ्यः हरे हरेः हरिभ्यां हरिभ्यः हरेः हर्योः हरिणां हरौ हर्योः हरिषु हे हरि ए हरे ए हरि हे हरयः
सम्यक् हे हरिः हे हरि हे हरि हे हरयः उत्तमं हा पार्वति भगिनी अहं प्रेषितवती वाट्सप् मध्ये एकवारम् अभ्यासं कारयतु
भगिनी अहं वदामि
हा वदतु न अभ्यासं करणीयं यु नीड् टु मेक् अदर्स् हरि
हरि
एकपूर्णवाक्यं वदतु हरिः हरि हरयः मेक् दं टेल् टु टैम्स् सर्वे वदन्तु द्विवारं वदन्तु इकारः एवं प्रारम्भं करोतु भगिनि इकारान्तः पुल्लिङ्गः हरिशब्दः द्विवारं वदन्तु सर्वे डिम्पल् भगिनि प्रारम्भं करोतु
हरिः हरि हरयः हरिं हरि हरिं
हरि एकनिमिषं यु नीड् टु गिव् टैम् फार् अदर्स् टु रिपीट्
ओ ओके ओके ओके
हा अभ्यासं कारयतु चेत् यु हेव् टु हा you tell one full line, then they will repeat. All will repeat.
Okay.
Sarve unmute kurvanto, repeat kurvanto.
Harihi Hari Harayaha.
Harihi Hari Harayaha.
Harim Hari Harin.
Harim Hari Harin.
Harina हरिभ्यां हरिभिः
हरिणा
हरिणा
हरिभ्यां हरिभिः
हरये हरिभ्यां हरिभ्यः
हरये हरिभ्यां हरिभ्यः
हरेः हरिभ्यां हरिभ्यः
हरेः
हरेभ्यां
हरिभ्यः
हरेः हरयोः हरिणां
हरेः हरयोः हरिणां
हरौ हरयोः हरिषु
हरौ हरयोः हरिषु
हे हरे हे हरि हे हरयः
हे हरे हे हरि हे हरयः
हरयः
धन्यवादः सुजया भगिनी मतिशब्दम् एकवारम् अभ्यासं कारयति वा मतिः इकारान्त स्त्रीलिङ्गः इदानीं प्रेषितवती वाट्सप् मध्ये
केन ऐ से
का हा मीरा भगिनी हा वदतु भगिनी एकनिमिषं सुजया भगिनी अभ्यासं कारयति अनन्तरं वदतु डिम्पल् भगिनी पद्मजा भगिनी पद्मावती भगिनी हू अवर् स्टार्ट् सर्वदा एवं प्रारम्भं करणीयम् इकारान्तः स्त्रीलिङ्गः मतिशब्दः अदर्वैस् यु विल् नाट् नो विच् शब्दं स्त्रीलिङ्गं वा पुल्लिङ्गं वा सो वेन् एवर् यु डू दिस् अभ्यासः यु हेव् टु स्टार्ट् वित् द फस्ट् लैन् किं शब्दः इकारान्तः पुल्लिङ्गशब्दः इति एव प्रारम्भं करणीयम् सर्वे अन्यत् कृत्वा वदन्तु
इकारान्तः स्त्रीलिङ्गः मतिशब्दः मतिः मतिः मति
एकनिमिषम् एकनिमिषं सर्वे वदन्तु इकारान्तः
इकारान्तः स्त्रीलिङ्गः मतिशब्दः
आम् ओके मतिः मति मतयः
मति मति मतयः
हे मते हे मति हे मतयः मतिं मति मतीः
मतिं मति मतीः
मत्या मतिभ्यां मतिभिः
मत्या मतिभ्यां मतिभिः
मत्यै मतिभ्यां मतिभ्यः
मत्यै मतिभ्यां मतिभ्यः
मत्याः मतिभ्यां मतिभ्यः
मत्याः मतिभ्यां मतिभ्यः
मत्याः मत्योः मतीनां
मत्याः मत्योः मतीनां
मत्यां मत्योः मतिषु
मत्यां मत्योः मतिषु
धन्यवादः. इदानीं
अहं वदति भगिनी अहं वदति
न अभ्यासम् एषः कारितवती. इदानीम् अहम् इतोपि एकशब्दमस्ति अहं कारयामि. गुरुशब्दम् अहम् एकवारं प्रेषयामि. Whichever sound we have here, the next अभ्यासः. I'm just trying to do those shabdah so that you will have one abhyasam, then we will go to the lesson.
Okay.
Ekamsha. Preshayami Guru Shabdam. Anya Bhaginyaha, Dimple Bhagini, Neera Bhagini, Padmavati Bhagini. If you want to join in this WhatsApp group, just send me a message, I will add you. So that I
okay, I would like to, yeah. So I'll send you the email.
Which one I want to send you? I have to send you which one? My pass WhatsApp.
Yeah, if you want to join in the WhatsApp group, then you can send me your address number. I'll add you.
Okay.
Can we just give it to you?
You can take it. Yeah, I'll give it at the end.
Bhagni, last week you told there will be a Sanskrit spoken Sanskrit class course is going on. Can you give me that link?
Yeah, I'll give it. I started now. It's only for October. I will send it. Once I get it, I'll send it.
Okay. Thank you, Bhagni. Dhanyavad.
अस्तु. इदानीं गुरुशब्दः अहम् अभ्यासं कारयामि. अहं वदामि, सर्वे अन्यूट् कृत्वा एकवारं वदतु. उकारान्तः पुल्लिङ्गः गुरुशब्दः.
उकारान्तः
पुल्लिङ्गः गुरुशब्दः.
गुरुः गुरु गुरवः.
गुरुः गुरु गुरवः.
हे गुरो हे गुरु हे गुरवः.
हे गुरु हे गुरु हे गुरवः.
हे गुरुः गुरुं गुरु गुरून्
गुरुं
गुरु गुरून्
गुरुणाभ्यां गुरुभिः
गुरुणा
गुरुभ्यां गुरुभिः
गुरवे गुरुभ्यां गुरुभ्यः
गुरवे गुरुभ्यां गुरुभ्यः
गुरोः
गुरुभ्यां गुरुभ्यः
गुरोः गुरोः गुरूणां
गुरोः 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 गुरूणां
गुरोः गुरुषु
गुरौ
गुरौ गुरोः गुरुषु
गुरुषु.
पुनः एकवारं वदामि. उकारान्तः पुल्लिङ्गशब्दः गुरुशब्दः.
उकारान्तः पुल्लिङ्गः
शब्दः
शब्दः. गुरु गुरवः
गुरु
गुरोः गुरु गुरवः.
हे गुरो हे गुरु हे गुरवः.
हे गुरो
हे गुरु
हे गुरु
हे गुरवः.
गुरुं गुरु गुरून्
गुरुं गुरु
गुरु गुरून् गुरौ गुर्वोः गुरुषु
एकस्मिन् सप्ताहे ट्रै टु रीड् दीस् त्री शब्दाः इट् इस् आल्मोस्ट् सेम् हरिः शब्दः मतिः शब्दः एण्ड् गुरुः शब्दः इट्स् आल् सिमिलर् मन्लि पश्यतु द्विवचनम् अण्ड् बहुवचनम् अल्मोस्ट् सेम् मन्लि एकवचनं यु मैट् नीड् टु चेक् एतत् त्री शब्दः ट्रै टु मेमरैस् कण्ठस्थीकरणं कर्तुं प्रयत्नं कुर्वन्तु कण्ठस्थीकरणं मेमरैस् प्रयत्नं कुर्वन्तु अस्तु इदानीं पुस्तकं पश्यामः सर्वेषां समीपे पुस्तकम् अस्ति इति चिन्तयामि अद्य अहमपि किञ्चित् शेर् कर्तुं प्रयत्नं करोमि इदानीं पेज् नम्बर् 15 अत्र पश्यतु पेज् नम्बर् 15 मध्ये द्वितीया विभक्ति इकारान्तः उकारान्तः ऋकारान्तः ऋकारान्तः अपि अस्ति कर्तुः इति एकपदं तत् अग्रे पश्यामः अनन्तरं ऋकारान्तः पितृशब्दम् अपि अस्ति वि विल् स्लि रीड् स्लोलि चिन्ता मास्तु इफ् सम्थिङ्ग् एल्स् इस् देर् चिन्ता मास्तु स्लोलि वि विल् रीड् उदाहरणार्थम् इफ् इन् द्वितीया विभक्ति हरिशब्दम् आगच्छति देन् द्वितीया विभक्ति एकवचनं हरिं बहुवचनं हरीन् समानं स्त्रीलिङ्गे मतीं मतीः लैक् नदी नदीं नदी नदीः समानमेव मतीः शब्दः आल्मोस्ट् सिमिलर् अनन्तरं दधी दधी दधीनि वि हव् नाट् इट् सीन् नपुंसकलिङ्ग ईकारान्तः शब्दः वि हव् नाट् इट् सीन् इट्स् ओके विल् सी लेटर् अनन्तरम् उकारान्तः शब्दः गुरुं गुरुन् नौ वि हव् डन् द धेनुम् उकारान्तः स्त्रीलिङ्गशब्दः वि हव् नाट् ए डन् धेनुं धेनुः इति अस्ति अनन्तरं मधु मधुनि एतत् नपुंसकलिङ्गं मधुं मधुनि तत् प्रथमाविभक्ति द्वितीया विभक्ति सेम् देन् इट् विल् बि लैक् पुल्लिङ्ग उकारान्त शब्दं समानमेव आगच्छति अवगच्छति वा पुल्लिङ्गशब्दम् अकारान्तपुल्लिङ्गः अस्ति अनन्तरं वनम् इति नपुंसकलिङ्गशब्दमस्ति प्रथमा द्वितीया विभक्ति इस् डिफ्रेण्ट् फ्रम् पुल्लिङ्गशब्दं वनं वने वनानि प्रथमा विभक्ति द्वितीया विभक्ति आल्सो वनं वने वनानि द रीज़न् इस् आल्रेडि इम् इस् देर् पुस्तकम् इम् अस्ति सो द्वितीया विभक्ति इस् आल्सो कमिङ्ग् लैक् प्रथमा विभक्ति मध्ये फ्रम् तृतीया विभक्ति नपुंसकलिङ्गं सेम् लैक् पुल्लिङ्गशब्दः So it is very simple. Here also if you see Gurum Shaptam, Madhu Shaptam. Yetat Dvitya Vibhakti, so Bhinnam Asti. Madhu Madhuni Iti Asti, Gurum Gurun Iti Asti. Tritya Vibhakti Taha, Pashyati Ekavaram Guru Shaptam, Madhu Shaptam, compare Karotu, Dvayam Api Samanam. Darshyati. Astva, Avagatamva? Ekavaram Pashyatu. Anantaram, Rukananta Shaptaha, Pitaram Iti Asti Kalu, Tath Pitru Shaptam. पितृ इत्युक्ते पिता इति फादर् वयं सामान्यतः जनकः इति एव वदामः किमर्थम् इत्युक्ते एवं वयम् उपयोगं न कुर्मः मै वाय्स् इस् नाट् आडिबल्
वेरि लो वाय्स्
वदतु कृपया.
इदानीम् अहम् इन्क्रीस् कृतवती. कथमस्ति? बेटर् नौ?
सम्यक्
सम्यक् श्रूयते भगिनि.
सो इदानीं पश्यति चेत् ऋकारान्तः शब्दः पितरं पितॄन् इति अस्ति खलु. तत्र सामान्यतया वयं न पिता 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 इति मम पिता इति वयं न उपयोगं कुर्मः. किम् इत्युक्ते पितृशब्दम् इस् लिटिल् डिफ्रेण्ट् फ्रम् अदर् अकारान्तशब्दः. सो सर्वदा अकारान्तपुल्लिङ्गं जनकः इति एव वदामः, पिता इति न वदामः, जनकः इति वदामः. किम् इत्युक्ते तत् फार् एक्साम्पल् मै फादर्स् स्पेक्टकल् इति अहं वक्तव्यं चेत् जनकस्य उपनेत्रं बहु सुलभम्. परन्तु पितृशब्दे एतत् कोऽपि जानाति वा? षष्ठीविभक्ति पितुः इति आगच्छति. षष्ठीविभक्ति पितुः, मम पितुः उपनेत्रम् इति. मम अपि षष्ठीविभक्ति, पिता शब्दं पितु अहं पितुः इति वक्तव्यम्. सो टु अवाय्ड् देट् इफ् यु आर् नाट् सो कम्फर्टबल् वित् अदर्स् शब्दा देन् इट् इस् सिम्पल् टु से जनकस्य इति. समानं जननी इत्युक्ते अम्बा, मदर्. पुनः जननी, इदानीं गौरीशब्दं जानाति अतः गौरीशब्दं बहु सुलभम्. अहं मम मातुः अथवा माता मातुः इति अपि सम्यक् एव. मदर्, पितुः, मातुः, मातृ इति तदपि ऋकारान्तशब्दः. मम मातुः उपनेत्रम् इति एव अहं वक्तव्यं, मम मातुः, मै मदर्. अतः एतत् बहु सुलभं. मम अम्बायाः, सीतायाः अस्ति खलु, मम अम्बायाः उपनेत्रं बहु सुलभम्. अथवा जनन्याः, जननी इत्युक्ते अम्बा, सो जनन्याः उपनेत्रं. दीस् आल् आर् फैन्, यु केन् यूस् एनी वर्ड्. यु इफ् यु आर् वेरि कान्फिडेण्ट् यु नो द शब्दास् देन् यु केन् से पितुः, मातुः इति. परन्तु यु नीड् टु यूस् द प्रापर् विभक्ति. सो टु सिम्प्लिफै देट् इफ् यु आर् नाट् कम्फर्टबल् देन् दीस् आर् आल् द आल्टर्नेटिव् शब्दास्. You can use this during sambhashanam or when you write. Atva? Atra kimapi sandeham asti va? Because we are using all these shabdas regularly. Ataha aham vadami. Samanam patihi shabdaha api. Patihi. Harihi shabdam asti kalu samanam patihi iti agachati.
Bhagni, once again you tell. Janakaha? Pita, janakaha?
Naam.
Janakaha? And then, instead of pita, instead of pita, we can use janakaha. And then, for mata, amba, janani. Okay.
That is all samana shabda hai. Samanam patihi iti shabdam asti, pati shabdam. Pati, tatrapi. पत्युः इति आगच्छति. सो इफ् यु आर् नाट् कम्फर्टबल् पत्युः नाट् रिमेम्बरिङ्ग् देन् यु केन् सिम्प्लि यूस् पतिमहोदयः. मम पतिमहोदयस्य पिता, मम पतिमहोदयस्य उपनेत्रं. सो ऐ केन् दीस् आर् द शार्ट्कट्. इफ् यु डोण्ट् रिमेम्बर् द एक्साक्ट् विभक्ति फर् दट् शब्दास् देन् दीस् आर् आल् द शार्ट्कट् टु यूस् इट्. बट् वि नीड् टु मेमरैस् इट् प्रापर् व्याकरणं वि नीड् टु मेमरैस्. I'm just telling for sambhashana kaushalatam etat vadam. Agre gachamah. Etat shabdah, pitru shabdam, kartru shabdam, matru shabdam. We will see, every week we will read like this, 2-3 shabdam. Parantu varge vayam kim atra abhyasam kurmah, tat shabdam kantasti karanam kurvantu. We try to memorize that. अनन्तरम् अत्र पेज् नम्बर् 14 मध्ये अपि अस्ति. नो वन् आस्क् मी द डौट्, परन्तु अहं वदामि, अहं न जानामि भवन्तः.
ऐ आस्क् भगिनि, ऐ आस्क् 14th पेज् 11th क्वशन्. लेवेन्त् क्वशन् दिस् सः
पश्यतु. अत्र 14th पेज् मध्ये किम् अस्ति, बालकः सः जानाति इति अस्ति, तत्र सः इति पदं न आगच्छति, बालकः सः शब्दस्य सः इति सर्वनामशब्दम् इति नामं, तं जानाति इति, इट्स् सेम् लैक् रामशब्दं, सः शब्दः, देर् विल् बि टू प्लेसस् इट् विल् बि डिफ्रेण्ट्, एकं रामे इति सप्तमी विभक्त्याम् आगच्छति, अत्र सः शब्दे एकस्मिन्, इफ् यु रीड् एनी स्टोरि इट् विल् कम् अस् एकस्मिन् दिने एकस्मिन् ग्रामे इति आगच्छति, तत्र एकं भिन्नः अस्ति. अनन्तरं चतुर्थीविभक्तिमध्ये अपि किञ्चित् भिन्नः अस्ति, रामाय इति चतुर्थीविभक्त्याम् आगच्छति, अत्र तस्यै इति आगच्छति, अदर्वैस् इट् इस् सेम् अस् रामशब्दः, तत्र अपि अहं प्रेषयामि. अहं न जानामि भवन्तः कृतवन्तः वा इति, इफ् नाट् ऐ विल् सेण्ड् यू दिस् सः शब्दः, यू केन् डू यूसिङ्ग् सः शब्दः. अनन्तरम् अत्र भवन्तः भवत्यः इति शब्दमस्ति, भवत्यः भवती ईकारान्तशब्दः, सेम् लैक् गौरीशब्दम् अथवा नदीशब्दं, नदीशब्दं यू केन् यूस् एण्ड् डू दिस् भवत्यः. भवन्तः भवान् इति एकशब्दमस्ति, भवान् शब्दम् इति अस्ति, तत् वयं न पठितवन्तः, अनन्तरं पठामः. ऐ डोण्ट् वाण्ट् टु गो वेरि फास्ट्. समानम् अहम् इति एकशब्दम्, अस्मत् इति एकशब्दमस्ति, तदपि अनन्तरं पश्यामः, मेबि नेक्स्ट् वीक्. अस्तु वा
भगिनी, सा शब्दं सा
सीताशब्दं, सीता खलु, सीताशब्दस्य समानं सा, शब्दः सः सा एण्ड् तत् इति शब्दमस्ति, दीस् आर् आल् काल्ड् सर्वनामशब्दम्. इट् मीन्स् इन् एनी प्लेस् यु केन् यूस् इट्. ते आगच्छन्ति, यु डोण्ट् नीड् टु से हू इस् कमिङ्ग्, ते आगच्छन्ति, अतः एतत् सर्वं सर्वनामशब्दानि इति शब्दाः, क्षम्यतां शब्दानि नास्ति शब्दाः, सर्वनामशब्दाः इति नामस्ति. सेम् लैक् सा इस् इक्वल् टु सीता. And it is same. Saha Shaptam, there are two places it will be different. One is Tasyai, Anantaram, Ekasmin. In two places these are different. Aham Shaptam, Vayam Anantaram, Bhavati Shaptam Abhi, Bhavantaha Jananti. Bhavan Shaptam, Aham Shaptam, Anantaram Pashyamah. Maybe next week, Ekavar Pashyamah. Katinam Asti Va?
भगिनी, गतवर्गे भवती उक्तवती सर्वनामशब्दरूपाणि प्रेषयिष्यामि
इति.
अहं न कृतवती,
एकवारम् अहं विस्मृतवती चेत् एकवारं मां स्मारयतु, मेसेज् एकं प्रेषयतु, अहं प्रेषयामि.
आं भगिनि,
इदानीं रमा भगिनी सम्यक् सम्भाषणं करोति, दोषः एव न,
प्रयत्नं करोमि भगिनि.
सम्यक् एव सरलसम्भाषणं,
द्वितीया विभक्ति तां भगिनि,
तां सा द्वितीया विभक्ति, तां सीताम् इति आगच्छति खलु, समानं तां.
भगिनी, आगामि मङ्गलवासरे त्वं भवान् भवती सर्वनामशब्दे प्रश्नं कुरु. नास्ति सम्यक् मम सेण्टेन्स्, ऐ थिङ्क् यु अण्डर्स्टुड् द
अग्रे किमपि सन्देहम् अस्ति वा, कठिनम् इति चिन्तयति वा विभक्ति?
भगिनि
नाति भगिनि, बट् वी हेव् टु लर्न् बै हार्ट्.
अस्तु, इदानीं रवि इति एकशब्दम् अस्ति, रविशब्दं तत् समानमेव हरि रवि आल समानशब्दाः एव अत्र तत् अभ्यासः एकवारं कुर्मः रविं रवीम् इति अस्ति समानं बारविः इति अस्ति तत् रविशब्दं समानमेव बारवीं बारवीन् शौरिः इति अस्ति तदपि समानं पतिः शब्दसमानं पतिं पतीन् इति एवम् अत्र पश्यतु पुल्लिङ्गं पुल्लिङ्गम् इति अस्ति खलु चेत् इकारान्तः पुल्लिङ्गशब्दः भवन्तः समीपे किमपि अन्यशब्दरूपं किमपि पुस्तकमस्ति वा अथवा डौन्लोड् कुर्वन्तु अत्र विभक्ति पुस्तके अपि शब्दाः न सन्ति अहं किं किं प्रेषयामि तावदेव परन्तु शब्दरूपाः सन्ति गूगल् मध्ये एकवारं कुर्वन्ति चेत् तत् आगच्छति किं किं शब्दाः आवश्यकं तत् एकवारं डौन्लोड् कुर्वन्तु अथवा अहं किं किं प्रेषयामि तत् प्रथमं पठतु पर्याप्तं पश्यतु इदानीं शारदिः इति अस्ति तत् समानं हरिः शब्दम् अथवा पतिः शब्दम् मतिः इति अस्ति स्त्रीलिङ्ग इकारान्तशब्दः दट् इस् इक्वल् टु मतिः शब्दः अनन्तरं बन्धुः इति अस्ति दट् इस् इक्वल् टु उकारान्तः वयनि एनि उकारान्तः शब्दः वि हव् नाट् एट् डन् उकारान्तः पुल्लिङ्गशब्दः गुरुशब्दः इति बन्धुः समानः एवं पश्यतु किं किं शब्दः मेचिङ्ग् भवति इति अनन्तरम् अहम् उक्तवती माता शब्दः मातृ पितृ शब्दः वयं न कृतवन्तः माता तत् त्यजतु 10 and 11 यु केन् लीव् इट् डोण्ट् डू इट् तत् दृष्ट्वा अनन्तरं कुर्मः अस्तु समानम् इदानीं सर्वे अहं पृच्छामि ऐ विल् आस्क् यु क्वशन् ओन्लि यु हेव् टु आन्सर् नाट् आल् सर्वे दृश्यति वा
भगिनि शरदि इत्युक्ते किं शरदि इत्युक्ते किम् शरदि थर्ड् वर्ड्
शरदि सारथि
हलो
संगीता भगिनी इज लॉस्ट आई थिंक कनेक्शन
या शी इज लॉग्ड आउट शी सेड जस्ट सेंट एन ऐप सेइंग दैट वेदर वी आर एबल टू लॉग इन
Yeah, we are in already,
right? I have told her that we are logged in and she is not able to log in yet.
Now it's working.
Parul Bhagini, were you asking what Sharadi means?
Yeah, Sharadi, Bharavi, Tori.
Ocean, na?
No, in the dictionary it says it's a quiver where the arrows are held.
Okay.
You know, the
Gandiva. What is it?
the thing where the arrows are put, bow and arrow.
Squirrel.
Yeah.
Kujaya Bhagini?
So, Bhagini?
Quiver means also Gandiva, isn't it?
Gandiva. Gandiva, yeah. Sharadhi, Sharadhi means Gandiva. Where we put the this thing, arrows. We can do this, Bharavihi.
Maybe we can do Vibhakti practice.
So confusing, my God.
Bharavihi, Bharavihi is just like Hari Shabda.
Why don't you do Vibhakti practice? Karayituva. Nadi Shabdaha, Gauri Shabdaha.
Bharavihi, Bharavi, 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 Bharaviyaha.
She is back.
Is it correct? Bharavim, Bharavi, Bharavim. Bharavina, Bharavibhyam, Bharavibhi.
I don't know, through my Wi-Fi I'm not able to log in. So I logged in through my phone. I don't know whether the recording will continue. We'll see. Idanim, I could not screen share my screen also since I logged in through phone. Astu, Sarvesham haste pustakam asti khalu. You all have the book, right? Patamaha. Aham namam vadami. Sarve answer vadatu. Page number 16. Second one, dvitiya section. Tatra eka udaharanam asti. Shishyah gurum namati iti asti. Aham kramashah gamishyami. Bhaktah dash namati. Anubhagini.
Bhaktah harim namati.
Saha dash namati. Vijaya Bhagini.
Saha kavim namati.
Sujaya Bhagini, balakah dash namaskaroti. Mata.
Balakah matam namaskaroti.
Tatraiva mataram namaskaroti.
Matrashaptam.
Atra asti kalo. The previous page, there is one table, no? Pitaram mataram iti. Chitamasto. We have not yet done, no? It's okay.
Yes.
Grihini Denuhu Namaskaroti. Denuhu Namaskaroti. Padmavati Bhagini. Atra table mati asti. Denuhu.
Denu. Denu. Namaskaroti.
Namaskaroti. Lakshmi Bhagini. Balika dash Namaskaroti.
Balika Pitra.
Balika Pitra.
Pitaram. Pitaram. Pitaram namaskaroti. Rama Bhagini. Grihini dash namaskaroti. Denuhu.
Grihini dhenum namaskaroti.
Madrika Bhagini, Gramina hai डेश् उददिः पश्यति. उददिः इति अस्ति खलु, तत् इकारान्तः शब्दः, पुल्लिङ्गशब्दः.
ग्रामीणः उददिं पश्यति.
करेक्ट्, उददिम्. एनिवे द्वितीयविभक्ति आल् विल् बि इम् ओन्लि, सो चिन्ता मास्तु. पारुल् भगिनी, कृष्णः वेणुः वादयति.
कृष्णः वेणुं वादयति.
वादयति हौकारान्तशब्दः, मधुमुष्टमानं. अनन्तरम् अध्यापकः वटुः बोधयति. डिम्पल् भगिनी,
अध्यापकः वटुं
बोधयति.
मोदयति.
मीरा
भगिनी, वाट् इस् द मीनिङ्ग् आफ् वटु? वटु
वटु इस् द यङ्ग् बाय्. वटु हू इस् यङ्ग् बाय् हू हू जस्ट् डन् इस् उपनयनं. वटु हू इस् अरौण्ड् 10-11 इयर् बाय्. वटु हू वधु इस् द गर्ल्. युश्वलि दट् दोस् टैम्स् द चैल्ड् मेरेजस् यूस् हेपन्, सो दट् they will say vatu hu vadu iti. Vadu, even now vadu stand good for a bride too, but
couple, you girl.
Vadu
var vadu var vadu.
Vadu is a young boy. Anantaram snehitah bratha aahvayati. Meera bhagini,
snehitah bratram or bratam, I think bratram, right?
Bratram
aahvayati.
कालिङ्ग् आर् इन्वैटिङ्ग् भ्रातृ. पुनः उकारान्तः पितृशब्दसमानं भ्रातृशब्दः. इदानीं पुनः अहम् एक रौण्ड् आगमिष्यामि. एतत् बहुवचन अभ्यासः, चिन्ता मास्तु, डोण्ट् वरि, इवन् इफ् यु गेट् इट् we are going slowly. That's why I took almost 3 weeks for Dvitiya Vibhakti. I didn't start Tritiya. It's okay, don't worry, even if you get it. But abhyasam, punaha punaha, pustake kim asti, tat lekhitum prayatnam karotu. Adhyavayam kim shaktaha patamaha, tat api ekavaram prayatnam kurvantu. So slowly you will get it. Even if you don't remember the shaktas immediately, it's okay. By in 2-3 weeks, you will get it. Chinta mastu. Idanim bahuvachanam rupam. Tra udaharanam asti. Chatraha gurun namati iti asti. Anubhagini, vanapalaha dash duri karoti kapi iti asti.
Kapi shabtaha. Vanapalaha kapi duri karoti.
Kapiin duri karoti. पद्मावती भगिनी, भक्ताः मुनिं, मुनि इति पुल्लिङ्गशब्दं, प्रणम्ति. पद्मावती भगिनी अस्ति वा?
अस्ति अस्ति, म्यूट्.
मुनि,
भक्ताः मुनीन् प्रणमन्ति.
अस्तु, म्यूट् कुर्वन्तु. विजया भगिनी, धात्री शिशुः पालयति. शिशुः पुल्लिङ्गशब्दं.
धात्री शिशुन् पालयति.
सुजया भगिनी, सैनिकः शत्रु पुल्लिङ्गशब्दं, शत्रु उकारान्तः, शत्रुं मारयति. शत्रु उकारान्त गुरुशब्दसमानं. सुजया भगिनी, अस्तु. लक्ष्मी भगिनी, हरि ओम्.
सैनिकाः शत्रून् मारयन्ति.
शत्रून् मारयन्ति. रमा भगिनी गृहस्थः तदेव अहम् उक्तवती
शत्रून्
गुरुशब्दं समानं शत्रुशब्दं शत्रून् अनन्तरं गृहस्थः अतिथि पुल्लिङ्गं सत्करोति रमा भगिनी
आं भगिनि गृहस्थः अतिथिं सत्करोति
तत्र अतिथि अतिथि इति शब्दः पुल्लिङ्गशब्दः तत्र अतिथिः इति आगच्छति समानपतिः शब्दसमानं पतिशब्दसमानं पुनः पति अतिथीन् इति आगच्छति लाङ्ग्
हरिम् इति खलु गृहस्थः अतिथीन् सत्करोति
मधुरिका भगिनी छात्रः कालिदासस्य कृति पठति अत्र पश्यतु कृति इति स्त्रीलिङ्गशब्दः कृति मतिशब्दः
छात्रः कालिदासस्य कृतिः पठति
सम्यक् पश्यतु इदानीं तत्र ईकारान्तशब्दः पुल्लिङ्गशब्दः स्त्रीलिङ्गशब्दः आगच्छति तत्र किञ्चित् भिन्नं भवति खलु आकारान्तस्त्रीलिङ्गं चेत् सीता द्वितीया आल्सो सीतां सीते सीताः आगच्छति ईकारान्तकस्त्रीलिङ्गमपि किं कृति इति स्वीकरोतु कृतिं कृत्यौ कृतीः इति आगच्छति नदीशब्दसमानम् आगच्छति ओन्लि देर् इन् स्त्रीलिङ्गशब्द यु नीड् टु बि लिटिल् केर्फुल् अदर्वैस् आल्मोस्ट् आल् पुल्लिङ्ग नपुंसकलिङ्ग उकारान्त इकारान्त किमपि अन्ये शब्दाः इन् इम् अण्ड् इन् एव द्वितीया बहु आगच्छति ईकारान्त आकारान्त पुल्लिङ्गे किञ्चित् गमनम् आवश्यकं सम्यक् अनन्तरं पारुल् भगिनी प्रधानाध्यापकः पितृ निमन्त्रय
प्रधानाध्यापकः पितरं निमन्त्रयति
पितृ
नपुंसकलिङ्गं क्षम्यतां बहुवचनं सर्वं पितृ शब्दः नपुंसक क्षम्यतां पितॄन्
पितॄन्
पितृशब्दः गुरुशब्दः उकारान्तशब्दः पितृशब्दः ऋकारान्तः शब्दः फार् एक्साम्पल् इफ् यु टेक् गुरुशब्देः गुरवे इति आगच्छति खलु गुरुणा इति आगच्छति तत् समानं पित्रा चतुर्थी विभक्ति गुरवे इति आगच्छति पित्रा पित्रे इति आगतं तदपि सम्यक् गुरोः इति आगच्छति पितृः इति आगच्छति किञ्चित् भेदम् अधिकं नास्ति परन्तु अत्र तत्र किञ्चित् भेदमस्ति यु केन् ओन्लि नोट् द डिफ्रेन्स् अण्ड् देन् मेमरैस् इट् अकार्डिङ्ग्लि देट् विल् हेल्प् यु अनन्तरं डिम्पल् भगिनी कार्यकर्तरी मातृ मेलयति
कार्यकर्तरी मातरं मेलयति
मातृः अत्रापि पुनः इट्स् अ स्त्रीलिङ्गशब्द इट्स् अ लिटिल् डिफ्रेण्ट् सो मातृः यु केन् सी इन् द बाक्स् बाक्स् न द प्रीवियस् पेज् इट् इस् गिवन् मातृः
बहुवचनम्
आल् आर् बहुवचनम्
ओके मातृभूया
याचकः दातृ पुल्लिङ्गशब्दम् ओके याचकः दातॄन् दातॄन् पश्यति
दातॄन् पश्यति पुल्लिङ्गं स्त्रीलिङ्गं मातृः इति आगच्छति पुनः यदा सीता सीते सीताः आगच्छति समानम् अत्रापि मातरं मातरे मातृः इति आगच्छति दीर्घ मातृः इति आगच्छति whoever has not knowing this don't try to do now just you can take the help of the previous page box page number 15 box and you can answer don't try to memorize now we will do it later astu evam fill up kurvantu तृतीया विभक्ति गमिष्यामः पेज् नम्बर् 18 अहम् अद्य किञ्चित् विषयं वदामि अग्रिमसप्ताहे सम्यक् पठामः तृतीया विभक्ति परन्तु बिफोर् तृतीया विभक्ति गोयिङ्ग् गमनात् पूर्वं एतत् इन् आल् दीस् क्लासस् वि हेव् डन् अरौण्ड् 6 to 8 शब्दम् अरौण्ड् 6 to 8 शब्दात् मेमरैस् कुर्वन्तु एक्ससैस् द्वितीयाविभक्ति सम्पूर्णं दो यु नो आर् यु डोण्ट् नो इफ् इट् इस् रिपीटिङ्ग् सेम् वर्ड्स् दट्स् ओके रैट् इट् एस् मच् एस् पासिबल् इट् विल् बि ईज़ि फर् यू लेटर् अस्तु इदानीं तृतीयाविभक्ति विषयं वदामि वयं पूर्वमेव पठितवन्तः कुत्र अभ्यासपुस्तके पूर्वमेव वयं पठितवन्तः तृतीयाविभक्तिविषयं पुनः अत्र इन् डीटेल् वयं पठामः सामान्यतया तृतीया विभक्ति कुत्र उपयोगं भवति इति कोऽपि वदति वा एनिवन् केन् टेल् एनि ऐडिया
आक्षन्
वर्ड् इति नास्ति
मूलकारणं
तदेव इन्स्ट्रुमेण्टल् इति सिम्पल् अस्तु अत्र तृतीयाविभक्तिमध्ये पश्यति चेत् मोस्ट्लि इदानीं द्वितीयाविभक्ति वयं दृष्टवन्तः खलु द्वितीया विभक्तिमध्ये एकवाक्यं पश्यति चेत् रामः वनं गच्छति इति स्वीकरोतु तत्र रामः इति एकः सब्जेक्ट् अस्ति कर्ता कर्ता कर्तृ यु केन् यूस् एनि वर्ड् कर्तृ अस्ति अनन्तरं कर्मम् अस्ति कर्मं द्वितीयाविभक्ति कर्मपदं द्वितीयाविभक्ति आल्वेस् नोन् एस् कर्मपदं किमपि कर्मं वर्क् इस् गोयिङ्ग् देन् ओन्ली द्वितीयाविभक्ति वेल्कम् कर्मकारे कर्मं प्रचलति सो रामः वनं गच्छति तत्र वनम् इति आगच्छति ऐ आल्रेडि टोल्ड् पुल्लिङ्ग नपुंसकलिङ्ग सारि नपुंसकलिङ्गे प्रथम अण्ड् द्वितीयाविभक्ति विल् बि सेम् वनं वनम् इति एव आगच्छति वेळ्ळपयोगान् पठामः वनं वनम् इति एव आगच्छति अतः वन् सब्जेक्ट् कर्ता विल् बि दे देन् कर्मपदं विल् कम् एक्स्ट्रा बट् इफ् यु सी इन् तृतीया विभक्ति तत्र समटैम्स् द सब्जेक्ट् इट् सेल्फ् विल् कम् इन् तृतीया विभक्ति उदाहरणार्थम् अहं हस्तेन खादामि तत्र अहम् इति अस्ति खलु सब्जेक्ट् अपि अस्ति अहं कर्ता कथं खादामि केन खादामि इत्युक्ते हस्तेन इति अस्ति ऐ ईट् वित् मै हेण्ड् समटैम्स् इट् विल् कम् एस् द सब्जेक्ट् इट् सेल्फ़् विल् कम् इन् तृतीया विभक्ति कदा इति कोऽपि जानाति वा यु नो वेन् इट् विल् कम् लैक् दट् एनि ऐडिया subject itself will come in tritiya vibhakti
rameṇa saha
rameṇa saha
rameṇa saha gacchati
रामेण सह गच्छति न न पुनः पश्यतु सीता रामेण सह न सीता रामेण सह गच्छति इति वदति तत्र पुनः सीता इति अस्ति खलु सब्जेक्ट् अस्ति मम प्रश्नः सब्जेक्ट् कदा तृतीया विभक्ति तत्र प्रथमा विभक्ति एव नास्ति इति तृतीया कदा भवति सब्जेक्ट् एव तृतीया इति आगच्छति वा तत् अपि अस्ति इन् कर्मणि प्रयोगः अहम् इदानीं वदामि आक्टिव् वाय्स् पेसिव् वाय्स् इति कथम् इङ्ग्लिश् आङ्ग्लभाषायाम् अथवा किमपि भाषा अस्माकं भारतीयभाषायां कर्तृ कर्मणि आक्टिव् पेसिव् वाय्स् इति अस्ति संस्कृते अपि आक्टिव् वाय्स् अण्ड् पेसिव् वाय्स् इति कर्तरिप्रयोगः आक्टिव् वाय्स् कर्मणि प्रयोगः पेसिव् वाय्स् अस्ति तत्र कर्मणि प्रयोगः इदानीं वयं न पठामः वि आर् नाट् गोयिङ्ग् टु रीड् कर्मणि प्रयोगः परन्तु पुनः किमपि वाक्यं दृष्ट्वा यु शुड् नाट् गेट् कन्फ्यूस्ड् अतः अहं वदामि वि आर् नाट् गोयिङ्ग् टु टच् कर्मणि प्रयोगः नौ यदा वयम् इन्ट्रोडक्षन् इति गच्छामः केवलं विभक्ति एव पश्यामः कर्तरि तृतीया एव वयं द्रक्ष्यामः वि विल् सी द्रक्ष्यामः परन्तु एतत् You should not get confused. अतः अहं वदामि देर् इस् वन् मोर् प्रयोगः काल्ड् कर्मणि प्रयोगः तत्र सब्जेक्ट् एव कर्तृपदम् एव तृतीयाविभक्त्यां भवति परन्तु इदानीं वयं किं द्रक्ष्यामः तत् इन् आक्टिव् वाय्स् हौ टु यूस् तृतीयाविभक्ति वि आर् गोयिङ्ग् टु सी दट् ओन्लि अस्तु वा अतः अन्यचिन्तनं न कुर्वन्तु अहं केवलं एतदपि अस्ति इति वदामि दट्स् आल् अस्तु इदानीम् अहं कार्यं करोमि किमपि कार्यं करोमि वित् विच् इन्स्ट्रुमेण्ट् अहं कार्यं करोमि सर्वे अन्म्यूट् कुर्वन्ति वा सिन्स् ऐ एम् एक्स्प्लेनिङ्ग् ओन्ली द काण्टेक्स्ट् किञ्चित् शब्दं न आगतं धन्यवादः सो ओन्ली इत् वित् the help of what I am going to do the work that is tritiya vibhakti aham karyam karomi some work I am doing what is helping me to do that work for example aham khadami how do I eat aham khadami tatra subject asti aham asti khadami kriya asti to do that work I need some help no tadeva tritiya vibhakti अहं हस्तेन खादामि ऐ यूस् मै हेण्ड् टु ईट् अहं हस्तेन खादामि आर् ऐ ईट् वित् द प्लेट् अहं स्थालिकया खादामि देर् ऐ कीप् इट् इन् द प्लेट् अण्ड् ईट् सो हस्त न आवश्यकम् ऐ केन् जस्ट् से स्थालिकया खादामि देन् यु केन् यू आस् प्लेट् इस् देर् बट् ऐ स्टिल् यूस् मै हेण्ड् आल्सो नो देन् यू केन् यूस् बोत् अहं स्थालिकया हस्तेन खादामि लैक् देट् वी केन् आड् मल्टिपल् थिङ्ग्स् मल्टिपल् इन्स्ट्रुमेण्टल् बट् नौ इनिशियलि वि विल् सी वन् वन् मन्ली वि डोण्ट् कन्फ्यूस् टु मच् वि विल् यूस् वन् वन् मन्ली ऐ ईट् वित् द स्पून् अहं चमसेन खादामि ऐ यूस् द स्पून् टु ईट् चमसेन खादामि अनन्तरं नासिका अस्ति नोस् I smell with my nose. Aham nasikaya jigromi. Sitaya iti patitavantaha kalu? Nasikaya. The A, Sita, A will go, shaptam. So, Aya will come. C, if I have a board, I can explain. Ta iti asti kalu? That it plus A. That A will go, Aya will come. So, it is there. Sita, Sitaya. सीतया इति आगच्छति अहं नासिकया जिघ्रोमि अहं नेत्रेण पश्यामि इट् मैण्ट् लुक् लिटल् आड् फर् होस् नो हु आलरेडि नो द विभक्ति बट् बिकास् वी हेव् टु ऐस् विल् सी दट् द्विवचनं लेटर् इदानीम् एकवचनमेव पश्यामः अहं नेत्रेण पश्यामि अनन्तरम् अहं पादेन चलामि ऐ यूस् मै feet to walk aham padena chalami these are all the examples we will see all these things in detail आगामि सप्ताहे अस्तु वा
भगिनि भगिनि इन् दिस् सेण्ट् अहम् इस् आल्सो सब्जेक्ट् नो कर्तृ कर्तृपद
तदेव
अहं उक्तवती अहं कर्तृपद सब्जेक्ट् नासिकया इस् नाट् द सब्जेक्ट् नो अहम् इस् द सब्जेक्ट्
नो नासिकया इस् इन्स्ट्रुमेण्ट्
इन्स्ट्रुमेण्ट्
बट् इफ् इट् इन् कर्तरि विभक्ति इन् कर्तरि प्रयोगः कर्ता एव प्रधानम् सब्जेक्ट् इस् प्रधानं सर्वदा सब्जेक्ट् प्रथमाविभक्त्याम् एव भवति इट्स् आल्वेस् कम् इन् प्रथमाविभक्ति ओके इन् कर्मणि प्रयोगे कर्ममेव प्रधानं सो कर्ता विल् टेक् बेक् सीट् सो इट् विल् कम् इन् तृतीया विभक्ति बट् इन् कर्तरि प्रयोगं वेन् यु से कर्ता कर्तरि कर्तरि प्रयोगं दे आल्वेस् कर्ता विल् कम्
कर्ता विल् बि दे अस्तु भगिनि अस्तु
अन्ये किमपि सन्देहाः सन्ति वा वयं पश्यामः इन् डीटेल् वयं पश्यामः ऐ जस्ट् गेव् अन् इन्ट्रोडक्षन् टु यू जस्ट् टु प्रिपेर् फर् द नेक्स्ट् क्लास् न अवगच्छति चेत् अपि चिन्ता मास्तु इफ् यु आर् नाट् अण्डर्स्टाण्डिङ्ग् इट् इस् फैन् यु विल् सी वित् एव्रि एक्साम्पल् नेक्स्ट् वीक् जस्ट् गेट् रेडि दट्स् आल् अन्य किमपि प्रश्नाः सन्ति वा अस्तु न इति चिन्तयामि अहं किं किं शब्दान् प्रेषणीयं सः शब्दं सः तत् त्रीणि शब्दाः सर्वनामशब्दाः सः सा तत् शब्दम् इदानीमेव अहं प्रेषयामि अनन्तरं वाट् एवर् ऐ हेव् सेण्ट् ड्यूरिङ्ग् द क्लास् नौ वि हाव् प्राक्टीस्ड् ट्रै टु मेमरैस् दोस् शब्दास् ऐ विल् आस्क् वन् बै वन् नेक्स्ट् वीक् वन् वन् शब्द वन् वन् केण्टेन् अस्तु वा अस्तु
मिलामः
शान्ति शान्तिमन्त्रम् उक्त्वा गच्छामः वदतु भगिनि
मातृपितृशब्दः अपि प्रेषयतु
प्रेषयामि अहं चिन्तयामि बहु हेवि भवति वा इति टु मच् लोडेड् अहं प्रेषयामि एकं कुर्वन्तु यु डोण्ट् नीड् टु मेमरैस् बट् वेन् एवर् दीस् कैण्ड् आफ़् वर्ड्स् आर् कमिङ्ग् जस्ट् रेफर् अण्ड् रैट् एस् आफ् नौ डोण्ट् मेमरैस् एव्रिथिङ्ग् देन् यु विल् फर्गेट् अस्तु अस्तु परन्तु अहं
धन्यवादः
शान्तिमन्त्रं वदामि सर्वे म्यूट् कृत्वा शान्तिमन्त्रं वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे पत्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्धन्यवादः
धन्यवादः Can I give my number for WhatsApp?
Meera Bhagini, va?
Yeah, yes.
Five? Ek anumisham. Okay. I will type, okay. I will type my number to you. Just send me one message.
Okay, okay.
I will type to you.
Okay.
I will have your WhatsApp, Bhagini. I have your WhatsApp.
Okay.
Padmavati, I have your WhatsApp.
Okay, yeah, send me a message, I'll add you.
Okay.
I'll send the message.
Okay. Asli, Ram.
And I will send Dimple's phone number also.
Subratri. Bhagni.
One minute, I have to write the number. One minute. 9880041479 9880041 4. Okay, thank you, Babini. Okay.